नमामि शंभुं पुरुषं पुराणं नमामि सर्वज्ञमपारभावं नमामि रुद्रं प्रभुमक्षयं तं नमामि सर्वं शिरसा नमामि। श्रावण मासेस्मिन् शिवस्य वन्दनानन्तरं सर्वेषां जनानां कल्याणं वाञ्छन्ति इयम् अहं निधिः तिवारी कार्यक्रमस्य उद्घोषिका अस्मभ्यः प्रियेभ्यः श्रोतृगणेभ्यः नमनं समर्पयामि। श्रोतारः, यथा विदितमेवास्ति यत् मासेषु श्रावणमासस्य कियत् महत्त्वं शास्त्रेषु निहितमस्ति। सनातनधर्मस्य पञ्चाङ्गानुसारमपि नानाविधमासाः देवविषयकाः विद्वद्मनीषिभिः समुदीरिताः। यदा प्रकृतौ ग्रीष्म ऋतोः उष्णता आधिक्यं प्राप्नोति तदा श्रावणमासस्य प्रभावेण वातावरणम् अपि शीतलयुतं भवति, तथा च शिवाराधनया मनः अपि मुदितः भवत्येव। तावत् आगच्छन्तु श्रोतारः, अस्य कार्यक्रमस्य शुभाषितानुभागः मङ्गलाचरणत्वेन क्रियते जतिन शर्मणा, यो हि कल्याणकरो भवतीति आशास्ति।
यस्मिन् देशे न सम्मानो न वृत्तिर्न च बान्धवाः न च विद्यागमोऽप्यस्ति वासस्तत्र न कारयेत्।
शिव समुपासकाः मे श्रोतारः, अधुना चलामः प्रसङ्गानुभागं प्रति। यो हि प्रस्तूयते मधुरकण्ठेन सह अस्मत्सहयोगिनया निधिना।
सौराष्ट्रे सोमनाथं च श्रीशैले मल्लिकार्जुनम् उज्जैन्यां महाकालम् ओंकारं ममलेश्वरम् परल्यां वैद्यनाथं च दाकिन्यां भीमशंकरम् सेतुबन्धे तु रामेशं नागेशं दारुकावणे वाराणस्यां तु विश्वेशं त्र्यम्बकं गौतमी तटे हिमालये तु केदारं घुष्मेशं च शिवालये एतानि ज्योतिर्लिङ्गानि सायं प्रातः पठेन्नरः सप्तजन्मकृतं पापं स्मरणेन विनश्यति।
अतीवानन्दयुताय श्लोकाय धन्यवादाः। श्रोतृजनाः, कार्यक्रमे भवन्तः सम्प्रति श्रोष्यन्ति समसामयिक वार्ताः याः सर्वेभ्यः जनेभ्यः प्रेरणाप्रदाः भवन्ति। राष्ट्रियान्ताराष्ट्रिय वार्ताः सङ्कलय्य उपस्थितास्ति अस्माकम् सहयोगिनी सुषमा कुमारी।
प्रवर्तमान वर्षाय वित्त विधेयकः लोकसभायां पारितो जातः। सन्दर्भेस्मिन् वित्तमन्त्रिणा निर्मला सीतारमणेनोक्तं यत् प्रशासनं ऋण सम्बद्ध विधेयकानाम् आलक्ष्य ध्यानास्पदो वर्तते। भारतीय ओलम्पिक संघेन पेरिस नगर्यां सम्प्रवर्तमानेषु प्रतिस्पर्धासु विनेश फोगाट क्रीडिकायाः अयोग्यतायाः विरोधः प्रकटितः। ध्यानास्पदं वर्तते यत् केन्द्र प्रशासनं प्रकरणेस्मिन् सर्वविधोपायाः विधीयते। निर्वाचनायोगेन नवराज्यानां द्वादश राज्यसभीय आसनानां कृते उपनिर्वाचन कार्यक्रमस्य उद्घोषणा विहितास्ति। केन्द्रेण रेल यान सुरक्षां सुनिश्चेतुं 10,000+ वैद्युतिक इंजन कवच इत्यमुं चतुर्थ संस्करणम् अनुमोदितम्।
ज्ञान पिपासवः मित्राणि, ज्ञान विज्ञान विभागे अत्र अद्य भवतां समेषां ज्ञान संवर्धनाय उपस्थिताः सन्ति काशी हिन्दू विश्वविद्यालयस्य विनय कुमार पाण्डे महाभागाः। एतैः विद्वद्भिः सह संवादं साधयति अस्माकं सहयोगी पुनीत त्रिपाठी। आयान्तु, वयं सर्वे अस्मिन् ज्ञानरूपी सागरे निमज्जिताः भवामः।
प्रियाः श्रोतारः, अद्य आकाशवाण्यां साक्षात्काराय अस्माभिः साकं संवादाय उपस्थिताः वर्तन्ते राष्ट्रपति सम्मानेन सम्मानिताः काशी हिन्दू विश्वविद्यालयस्य च ज्योतिष विभागाध्यक्षचराः प्रोफेसर विनय कुमार पांडेय महाभागाः। स्वागतम् अस्ति अस्मिन् कार्यक्रमे भवतः।
धन्यवादः
महोदय। प्रथमः प्रश्नोऽयं विद्यते यत् अस्माभिः ज्ञातं यत् भवता सम्प्रत्येव रूसदेशस्य राजधान्यां मॉस्को नगरे ज्योतिषशास्त्रम् उररीकृत्य द्विदिवसीय अन्ताराष्ट्रिय सम्मेलने भागः स्वीकृतः। तावत् विदेशेष्वपि किं ज्योतिषशास्त्रस्य महत्वं तादृशमेव अस्ति यथा भारतीयानां मनसि स्थापितमस्ति इति?
बहु सौहृदं प्रश्नः। यतोहि तत्र न केवलं भारते अपि तु ब्रह्माण्डेऽस्मिन् सर्वेष्वपि राष्ट्रेषु सर्वेष्वपि लोकेषु तत्र एतादृशानां विषयाणां प्राबल्यम् अस्त्येव। यतोहि तत्र सृष्टिकालादेव सर्वेऽपि जनाः स्वकीय भविष्यविषये तत्र बहु चिन्तिताः भवन्ति। अस्माकं जीवने किं भविष्यति, अग्रिमे जीवने किं भविष्यति, अस्माकं जीवने अहं किं किं प्राप्नोमि, अहं किं किं भविष्यति अस्माकं जीवने अग्रिमे काले, तदा एतस्मिन् विषये तत्र सर्वेऽपि जनाः तत्र आदिकालादेव तत्र दत्तावधानाः सन्ति। अतीव तत्र अनेके नियमाः तत्र स्वस्वराष्ट्रेषु स्वस्वसमाजेषु तत्रस्थैः विद्वद्भिः प्रस्थापितः वर्तते। पाश्चात्यदेशे तत्र चैनीस् ज्योतिष वा रोम ज्योतिष वा तत्र पाश्चात्य वेस्टर्न ज्योतिष एस्ट्रोलॉजी नाम्ना तत्र एकः प्रविधिः बहु प्रसृतः वर्तते। परन्तु जो भारतीय ज्योतिषं प्रति यादृशं तत्र तेषां मन्तव्यं वा यादृशः विश्वासः विदेशेष्वपि अवलोक्यते न स्वीयां प्रविधिं प्रति तेषामपि। मन्ये अहं तत्र शताधिक तत्र प्रतिभागिनः आसन्, तेषु तत्र केचन अमेरिका वास्तव्याः, केचन फ्रांस वास्तव्याः, केचन चीन वास्तव्याः, केचन मास्को वास्तव्याः, सर्वेपि तत्र भारतीय ज्योतिषस्य विषये बहु तत्र कार्यं कुर्वन्तः सन्ति अधुना। और भारतस्य यतोहि तत्र आर्थिक रूपेण तत्र बहुविकासः जातः, परन्तु तेषां शान्ति नास्ति, तेषां जीवने शान्ति नास्ति, शान्तिपूर्णा समृद्धिः नास्ति, तेषां जीवने तत्र निश्चितता नास्ति, तेषां जीवने तत्र तादृशी समृद्धिः नास्ति यया सन्तुष्टिः स्यात्। अतएव ते सर्वेपि अधुना भारतीय ज्योतिषं प्रति तत्र दत्तावधानाः सन्ति, ज्योतिषं प्रति पश्यन्ति। यतोहि भारतीयं ज्योतिषं तत्र वैज्ञानिकं ज्योतिषं वर्तते, वैज्ञानिकं शास्त्रं वर्तते। आकाशीय ग्रहणनक्षत्रादीनां सम्बन्धेन तत्र विश्लेषणं भवति, तद्विश्लेषणद्वारा तेषां जीवने यादृशी स्थितिः भवति, तस्य फलादेशः भवति। अतएव विशेषतः तत्र युवानः ये सन्ति, मन्ये तत्र 30 वर्षादारभ्य 40 वर्षपर्यन्तं सर्वेषु प्रतिभागेषु मन्ये 90% जनाः तत्र युवानः एव आसन्। 30 वर्षादारभ्य 40 वर्षाणि यावत् येषां वयः आसीत् तादृशाः एव तत्र प्रतिभागिनः आसन् तत्र। सर्वेपि तत्र ज्योतिषस्य विषये बहु कार्यं कुर्वन्ति, बहु तत्र प्रपञ्चः नास्ति। अयं सन्तोषप्रदः यत् यादृशः प्रपञ्चः ज्योतिषविषये तत्र भारते दृश्यते, अर्थार्जनं कृते किमपि कुर्वन्ति तथा नास्ति। विदेशे तत्र ते दृढनिश्चयाः सन्ति, ते आधुनिकपद्धत्या किं च तत्र वैज्ञानिकरीत्या शास्त्ररीत्या तत्र एतस्मिन् विषये तत्र प्रायोगिकम् अध्ययनं कुर्वन्ति। एतस्य प्रयोगः कथं वयं अस्माकं जीवने कर्तुं शक्यते इत्यस्य ते तत्र वैज्ञानिकविधिना तत्र अध्ययनं कुर्वन्ति, शोधकार्यं कुर्वन्तः सन्ति। अतएव बहु तत्र विशेषा दृष्टिः दृश्यते, न केवलं मास्को देशे अपि तु समग्रेऽपि विश्वे। प्रतिदिनं तत्र जनाः आगच्छन्ति विभिन्नेभ्यः राष्ट्रेभ्यः, इटली देशतः, अमेरिका देशतः, किञ्च जापान देशतः, अस्माकं विभागे प्रतिदिनम् आयान्ति। तत्र मास्को देशेपि तु बहु अस्ति, परन्तु अत्रापि बहु प्रतिदिनं जनाः आयान्ति प्रतिदेशे तु अनेकेषु देशेषु। तो तदा अतएव ज्योतिषं प्रति, भारतीय ज्योतिषं प्रति राष्ट्रे बहु एका सकारात्मिका अवधारणा दृश्यते। अतएव ये अस्माकं ज्योतिषशास्त्रस्य ज्योतिषशास्त्रे अध्ययनरताः छात्राः सन्ति, ते यदा शास्त्रबलेन किञ्च आधुनिक तर्कशक्त्या शास्त्राधारेण यदा अध्ययनं करिष्यन्ति तदा तेषां जीवनं समुज्ज्वलम् अस्ति, ते स्वकीय जीवने बहु किञ्चित् कार्यं कर्तुं शक्नुवन्ति इति।
शोभनम् आचार्य, यथा परिवर्तिनी संसारेऽस्मिन् नानाविधानि अन्वेषणानि सम्मुखे समागतानि, ततः अन्वेषणक्रमे उतवा वैज्ञानिकतायाः पदक्षेपे ज्योतिषशास्त्रस्य उपयोगिता, समसामायिक प्रासंगिकता च भवता कथं प्रतिपाद्यते, कृपया विज्ञापयन्।
पश्यन्तु आधुनिक कालोऽयं तत्र विज्ञानस्य यदा मूलभूत स्रोतांसि यदा वयम् अन्विष्यामः तदा वयं पश्यामः यत् 2000 वर्षपूर्वं तत्र यदा कश्चन विज्ञानम् आसीत् तदा ज्योतिषमेव आसीत्। ज्योतिषातिरिक्तं किमपि विज्ञानं लोकेऽस्मिन् नैव आसीत्। अन्यत् विज्ञानम् आसीत् आयुर्वेदविज्ञानं, येन जीवन रक्षणम् आसीत् द्वितीयं विज्ञानम् आसीत् ज्योतिषं विज्ञानम्। ज्योतिष विज्ञाने एव आधुनिकाः येऽपि विज्ञानस्य विषयाः सन्ति ते सर्वेपि सन्निविष्टाः आसन्। जीवविज्ञानं, वनस्पतिविज्ञानं, खनिजविज्ञानं, रसायनविज्ञानं, कृषिविज्ञानं, वृष्टिविज्ञानं, मौसमविज्ञानं, खगोलविज्ञानं, भूगर्भविज्ञानम्, एते सर्वेपि विषयाः तत्र ज्योतिषशास्त्रे एव, गणितविज्ञानं च, एते सर्वेपि विषयाः तत्र ज्योतिषशास्त्रे एव आसन्। कालान्तरेण तत्र ज्योतिषशास्त्रात् किञ्च वेदात् तत्र मूलं संगृह्य ते सर्वेपि विषयाः गणितमूलेन तत्र स्वस्व तत्र विभागरूपेण अधुना परिनिष्ठिताः वर्तन्ते। अत एव परन्तु विज्ञानस्य यत् स्वरूपं दृश्यते तावदेव नास्ति, तस्य मूलभूत इतोपि अनेके विषयाः तत्र मूलभूतरूपेण तत्र मूलरूपेण अस्माकं ज्योतिषे वेदवेदाङ्गेषु च परिनिष्ठिता वर्तन्ते। अत एव तदा तम् अनुसृत्य यदा वयं कार्यं कुर्मः, विशेषतया तत्र मौसमविज्ञानविषये आधुनिकं मौसमविज्ञानं तत्र बहु किमपि न करोति, बहु किमपि कर्तुं क्षमोऽपि नास्ति। परन्तु भारतीय ज्योतिषशास्त्राधारेण यदा संहिताशास्त्रस्य संहिताकन्धस्य प्रयोगं कृत्वा वयं तत्र प्राकृतिकोत्पातानां तत्र अध्ययनं कर्तुं शक्नुमः, तस्य वर्षेषु पूर्वं वर्षे तत्र तस्य प्रकाशनमपि कर्तुं शक्नुमः। कृषिविषये तत्र जैविक कृषिविषये बहु किमपि कर्तुं शक्नुमः। अन्तरिक्षविज्ञानविषये अधुनापि तत्र पश्यन्तु गणितविषये, आकाशीय ग्रहगणितविषये, आकाशीय पदार्थानाम् अध्ययनविषये, एस्ट्रोनॉमी इति विभागेषु यत्किमपि कार्यं तत्र मासेषु वर्षेषु क्रियते तत् सर्वमपि कार्यम् अस्माकं शास्त्रीकक्षायाः एकः छात्रः तत्र एकं पत्रम् एका लेखनीं च गृहीत्वा तत्र एकहोरात्मकेन कालेनैव कर्तुं शक्नोति। यतोहि तत्र एकं पत्रं गृहीत्वा तत्र सिद्धान्ताः ये परिनिष्ठिताः सन्ति, ये नियमाः सन्ति, तान् नियमान् आधारीकृत्य स्वग्रहणगणितं प्रतिपादनोति। अतैव न केवलम् एतावदेव अपि तु अनेके तादृशाः अनेकेपि तत्र विषयाः सन्निविष्टाः वर्तन्ते येषाम् आधारेण वास्तुविज्ञानम्, अस्माकं वास्तुशास्त्रं, यतोहि तत्र आधुनिकं वास्तुशास्त्रं बहु उन्नति कृतं वर्तते। परन्तु तत्र आधुनिक वास्तुशास्त्रेण सिविल् इंजिनियरिङ्ग् आर्किटेक्ट् माध्यमेन निर्मितं यद् भवनं भवति तद् भवनं सुदृढं भवति, तत् सुन्दरं भवति, आकर्षकं भवति, परन्तु तस्मिन् गृहे तत्र यः कोऽपि निर्माणकर्ता निवसति, तस्य परिवारः निवसति, सः सुखी भविष्यति, तस्य परिवारे आरोग्यता भविष्यति, तस्य समृद्धिः च भविष्यति, एतस्य तत्र सुनिश्चितता नास्ति। परन्तु अस्माकं भारतीयवास्तुशास्त्ररीत्या यदा वयं गृहनिर्माणं कुर्मः तदा भारतीयं यत् लक्ष्यं वर्तते जीवनस्य, धर्मार्थ काम मोक्ष पुरुषार्थ चतुष्टय सिद्ध्यर्थं, तस्य सिद्धिर् अवश्यमेव भविष्यति। सुन्दरमपि गृहनिर्माणं भविष्यति, आकर्षकं गृहनिर्माणं भविष्यति, मनोरमं गृहनिर्माणं भविष्यति, तेन सहैव तत्र यः कोऽपि निवसति तस्य जीवने सुख शान्ति समृद्धि, परिवारे तत्र सामञ्जस्यं च भविष्यति इत्यस्य सुनिश्चितता भवति। परन्तु निश्चयेन यतोहि तत्र मूलरूपेण तत्र अस्माकं वास्तुशास्त्रे एतस्यैव चिन्तनं वर्तते यत् भवनं भवेत् तस्य परिवारस्य कल्याणाय भवेत् इति, तस्य जीवने तत्र धर्मार्थकां मोक्षाणां यत्र यानि मार्गाणि सन्ति तेषां मार्गे तस्य प्रवृत्तिः स्यात्। अत एव तत्र एतादृशाः अनेके विषयाः तत्र वैज्ञानिकाः विषयाः अधुनापि सन्निविष्टाः सन्ति येषां तत्र माध्यमेन वयं समाजे बहु किमपि कर्तुं शक्यते। अत एव ज्योतिषशास्त्रस्य यत् शास्त्रीयं स्वरूपं तम् आधारीकृत्य अवश्येन अध्ययनं सम्पादनीयं, तेन अध्ययनेन समाजस्य लाभः किं च शास्त्रस्यापि लाभः भविष्यति। एकः अन्यः विषयः अस्ति तत्र चिकित्साशास्त्रस्य, चिकित्साज्योतिषविषये बहु कार्याणि अधुना तत्र सन्ति, प्रचलन्ति अपि अस्माकं विभागे एव, तत्र हृदयरोगविषये, अस्थमारोगविषये, उदररोगविषये, मधुमेहरोगविषये, तत्र तेषां तत्र कुण्डलीनां जन्मविवरणं संगृह्य वयं तत्र यदा पश्यामः तथा अस्माकं शास्त्रेषु प्रदत्ताः योगाः सन्ति तदनुसारेणैव तेषां जीवने तत्र रोगस्य प्राप्तिरपि दृश्यते। अत एव जन्मकाले एव यदा सम्भावनां तेषां तत्र जीवने रोगस्य सम्भावनां ज्ञात्वा यदा वयं तत्र संयमपूर्वकं नियमपूर्वकं तेषां मार्गदर्शकानां चिकित्सकानां किं च तत्र योगादीनां तत्र अभ्यासेन वयं तेषां तादृशानां रोगाणाम् अस्माकं जीवने आगमनस्य सम्भावना तत्र न्यूनं कर्तुं शक्नुमः, तेषां सम्भावना न्यूना भविष्यति। यतो हि तत्र पूर्वमेव यदा ज्ञानं स्यात् यदा अग्रिमेषु कालेषु हृदयरोगस्य आशंका अस्ति तदा हृदयरोगकारकाः ये अवयवाः तेषां संयमेन वयं तत्र हृदयरोगं तत्र अवरुद्धुं शक्यते अपसारयितुं शक्यते अत एव निश्चयेन तादृशाः अनेके विषयाः सन्ति येषां तत्र समाजे प्रकाशनं किञ्च प्रवर्तनम् आवश्यकं वर्तते अत एव ज्योतिषशास्त्रं लोपोपकारकं शास्त्रं सृष्टिकालादेव अधुनापि लोकोपकारकं वर्तते परन्तु यत् स्वरूपम् अधुना समाजे दृश्यते तत् स्वरूपं नास्ति अत एव वास्तविकं स्वरूपं तस्य सेवनीयं यत् अशास्त्रीयं स्वरूपं तत् परिवर्जनीयम् इति
महोदय भवान् एतस्मै संवादाय समयं प्रदत्तवान् एतदर्थम् अहं पुनीत त्रिपाठी आकाशवाणीतः हृदयतलात् धन्यता वचांसि समर्पयामि भवते
धन्यवाद पुनीतजी
धन्यवादः महोदय नमो नमः
नमो नमः
अस्मै संवादाय धन्यवादाः महोदये प्रिय बान्धवाः संस्कृत भाषायाः संवर्धनाय अथ च शास्त्राणि आधृत्य लोके काः काः कार्यशालाः संगोष्ठ्यश्च इत्यादयः समाचरन्ति इति विषयम् अवलम्ब्य प्रस्तुतः अस्ति पुरुषोत्तम शर्मा
बिहारस्य दरभंगा स्थितेन मारवाड़ी महाविद्यालयस्य संस्कृत विभागेन बुधवासरे एकदिवसीया राष्ट्रिय संगोष्ठी आयोजिता अस्याम् संगोष्ठ्याम् संस्कृत संस्कृति संस्कार चेति विषये विद्वद्विशदा चर्चा कृता उत्तर प्रदेशस्य नागकूप शास्त्रार्थ समितिः देशस्य नव संस्कृत विदुषां सम्मानम् करिष्यति अयम् कार्यक्रमः अगस्त मासस्य त्रयोदशे दिनाङ्के भविष्यति दिल्लीस्थे श्री लालबहादुर शास्त्री राष्ट्रिय संस्कृत विश्वविद्यालये सोमवासरे अगस्त पञ्चमे दिने एकम् विशिष्टम् व्याख्यानम् आयोजितम् अत्रावसरे धर्म सम्राट स्वामी श्री करपात्री महाराज जयन्त्युत्सव आमानित कार्यक्रमे प्रोफेसर रामसलाही द्विवेदिना मुख्य वक्तव्यम् उपस्थापितम्
प्रिया बालाः सम्प्रति भवताम् समेषाम् प्रियानुभागस्य क्रमः समागतः बालवल्लरी इत्याख्यम् अनुभागम् गृहीत्वा बालेभ्यः किम् श्रावयति ऋचाझा आगच्छन्तु शृण्वन्तु कृपया
सर्वेभ्यः बालकेभ्यः नमो नमः अहम् ऋचाझा अद्य एकाम् कथाम् श्रावयामि अस्याः कथायाः शीर्षको वर्तते अभ्यास एव परमो गुरुः कश्चित् बालः आसीत् सः बङ्गप्रदेशे एकस्मिन् विद्यालये पठति स्म सः अतीव जिज्ञासुः आसीत् परन्तु सः पठने कुशलः न आसीत् सः यत् पठति तत् विस्मरति स्म सः पाठिनः तस्य उपहासं कुर्वन्ति स्म सः चिन्तयति किम् अहम् मूर्खः अस्मि किम् मम भाग्ये विद्या न अस्ति परन्तु अहम् तु पठितुम् इच्छामि तदा किम् कर्तव्यम् एकदा सः मार्गे एकम् कूपम् अपश्यत् कूपस्य उपरि एकः घटः आसीत् सः घटस्य अधः एकम् गर्तम् अपश्यत् सः अचिन्तयत् इमम् सुन्दरम् गर्तम् कः निर्मितवान् सः मातरम् अपृच्छत् मातः अहम् कूपे घटस्य अधः एकम् गर्तम् अपश्यम् तम् गर्तम् कः निर्मितवान् माता अवदत् पुत्र प्रतिदिनम् भूयो भूयः घटस्थापनेन सः गर्तः निर्मितः सः बालः विचारमग्नः अभवत् सः अचिन्तयत् यदि भूयो भूयः घटस्थापनेन पाषाणशिलायाम् गर्तः अभवत् तदा किम् पुनः पुनः पठनेन मम मतिः तीव्रा न भविष्यति इति विचार्य सः विद्याभ्यासे संलग्नः अभवत् सः पुनः पुनः पाठान् अपठत् पुनः पुनः लेखनस्य अपि अभ्यासम् अकरोत् शनैः शनैः सः बुद्धिमान् अभवत् सः परीक्षायाम् विशिष्टम् स्थानम् प्राप्तवान् अधुना तस्य सहपाठिनः तस्य उपहासम् न कुर्वन्ति अपितु आदरम् कुर्वन्ति स्म सत्यमेव अस्ति अभ्यास एव अस्ति परमो गुरुः धन्यवादः
मे सुहृत् श्रोतारः एतस्य कार्यक्रमस्य प्रत्येकम् अङ्कस्य समाप्तिः कठिना वर्तते यतोहि भवद्भिः सह इदम् साहचर्यम् अपि अवसीयते नास्ति काचित् वार्ता नवीने अङ्के वयम् पुनर्मिलामः नवीनम् प्रसङ्गम् विषयम् च समादाय भवद्भ्यः सर्वेभ्यः श्रावितः अयम् संस्कृत साप्ताहिकीति कार्यक्रमः कथम् प्रतीतः? स्वीय प्रतिक्रियाः अस्मान् प्रति nsdsanskrit@gmail.com इत्यत्र सम्प्रेषयन्तु कृपया। भवताम् समेषाम् जीवनम् कल्याणकरम् सुखदम् च भूयात् एवम् हृदि निधाय गमनानुमतिम् इच्छन्ति इयम् अहम् नमस्करोमि सर्वान्। तन्मे मनः शिवसङ्कल्पमस्तु। नमो नमः।